दिवं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पद आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुप्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवाशरव्याया तवतया नो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्तापि चाकशीः यामिषुम् गिरिशन्तहस्ते विवर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशा चावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्यवोचतदि वक्ता प्रथमो दैव्योऽभिषक् अयेगस्य सर्वा जम्भयन् सर्वा यातु धान्यः असौ यस्ताम्रौ अरुण उत वप्रस्वमङ्गलः ये चेमागुम् रुद्रा अमितो दिक्षश्रता सहस्रशो वैशागुम् हेण एवहे असौख्यो वसत्पतिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वाभूतानि सदृष्टो मृगयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्च धन्वनस्वमुभयोरात्मियोज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्यस्येषव आमुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतत्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नाथताय दृष्टवे उमाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक्तु विश्वतः अथो य इषु निस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे धान्ये दिशाम् च मतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय कृषीमते पथीनाम् पदये नमो नमो भक्लुषाय विप्यादिने नानाम् पदये नमो नमो हरिकेशायोपवीति पुष्टानाम् पदये नमो नमो भवस्येत्यै जगताम् पदये नमो नमो रुद्रायाततामिने क्षेत्राणाम् पदये नमो नमः सूताय हन्त्यायवनानाम् पदये नमो नमो रोहिताय स्तवतये वृक्षाणाम् पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पदये नमो नमो भुवन्तये वारिवस्त्रताय औषधीनाम् पदये नमो नम उच्चैर्दोषाय क्रन्दयते पत्तीनाम् पदये नमो नम कृष्णवीताय धावते सत्त्वनाम् पदये नमः नमः सहमानाय निर्व्याधिन आव्याधिनीनाम् पदये नमो नमः ककुमाय निषङ्गिने सेनानाम् पदये नमो नमो निषङ्गिण इषु धिमते तस्कराणाम् पदये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पदये नमो नमो निचेरवे परिचरायारण्यानाम् पदये नमो नमः श्रिकाविभ्यो जिगागुम् सद्भ्यो मुष्टताम् पदये नमो नमो शिवद्भ्यो नक्तञ्चरस्य प्रकृन्तानाम् पदये नमो नम उष्णेषिणे गिरिचराय कुलुञ्चानाम् पदये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छत्यो विसृजभ्यश्च वो नमो नमोऽस्यद्भ्यो भित्यभ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रभ्यश्च वो नमो नम तिष्ठन्यो दावभ्यश्च वो नमो नम समाभ्यः समापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महत्यः शुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नम सेनाभ्यस्सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः तक्षप्योरथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः शुग्रभ्यो नन्वकृभ्यश्च वो नमो नमो मृगयोभ्यश्वरिभ्यश्च वो नमो नमः श्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुमतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्तिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिविष्टाय च नमो मेनुष्ठमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्नियाय च प्रथमाय च नमः आशवे च जिराय च नमः श्री क्रियाय च शेभ्याय च नमः पूर्ण्याय च वस्वन्याय च नमः श्रोतस्याय च नेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धेयाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः शोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वविन्दते च नमो वर्मिणे च वरोधिने च नमो विल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो नष्टवे च क्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेष्वधिमते च नमः तीक्ष्णेशवेशायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च मत्याय च नमः काक्याय च नेभ्याय च नमः स्तोत्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः गोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः नेत्र्याय च तप्याय च नमो भात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुमाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च रुणाय च नमः शङ्घाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः चेत्याय च कोल्याय च नमः वार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च मेध्याय च नमः शिखत्याय च प्रवाह्याय च नमैरिन्याय च प्रवत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कवर्धिने च बुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्प्याय च सोप्याय च नमः पर्ण्याय च पर्णशख्याय च नमो प्रगुरमाराय च विक्रते च नमः आख्यदते च प्रख्यदते च नमो भक्किरिकेभ्यो देवानागु हृदयेभ्यो नमो वृक्षेणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः त्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् आवेर्मा रोमो येषाम् किञ्चनाममत् या ते रुद्र शिवा तनो शिवा विश्वाह भेषजे शिवा रुद्रस्य भेषजे तयानो नृजीवते इमागुम् रुद्राय तवसे कमण्डिने शयस्वेराय प्रवरामहे मतिम् यथा नश्यमसन्विपदे च दुष्पदे विश्वम् पुष्टम् रामे अस्मिन्ननातुरम् मृणानोरुद्रोतनोमयस्कदिक्षयत्वीराय नमसामि देवते यच्चञ्चयोश्च मनुराय दे पिता तदश्यामतवरुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वने हविष्मन्तो नमसा विदेवते आराते गोप्न उतपोरुषद्ये क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अरिचरेव प्रोयता च नः शर्म यच्च विबर्हाः सुहृश्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्तुमुग्रम् ऋणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः हरिणो रुद्रस्य हेतुर्वृणक्त्वपरिवेशस्य दुर्वतिरगायो अवस्थिरा भगवद्भ्यस्तनुष्वीध्वस्तोकायतनयाय मृणय नेणुष्टमशिवतम शिवो न सुमना भव परमे वृक्ष आयुधन्निनाय कृत्तिम् वसान आचर पिनाकम् विप्रदागये निकिरिद विलोहित नमस्ते अस्तु भगवः याते सहस्रगुह्येतयोन्यमस्मन्निव पन्तु सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्राधिभूम्या ते सागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन्महत्यर्णवेन्तरिक्षे भवा अधि नीलग्रीवा शितिकण्ठा शर्वा अधः क्षवाचराः नीलग्रीवा श्रुतिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पताम् पतिरक्षय ऐलमृदायभ्युदः ये तेतानि प्रचलन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च रिषो रुद्राविदस्थिरे तेषागुंसहस्रयोजने वदन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्दरिक्षे ये दिव्ये शामन्नम् वासो वर्षविषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदेशेर्दशोद्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् भे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाभिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रवयुतम् पाशा मृत्यो मर्त्यायन्तवे तार्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरतिरुत्रो मा विशान्तः हेनान्येनाप्यायस्व नमो रुद्राय विष्णवे प्रत्यर्मे पाहि तमुष्ठुर्यश्विशुस्वदन्वायो विश्वस्य क्षयति मे सदस्य यक्ष्वामहेशौ मनसाय रुद्रम् नमो भिर्देवमसुरम् धुमस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्ववेशयो यगुम् शिवाभिमर्शनः ॐ शान्ति 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 ॐ शं च मे मयश्च मे मयम् च मेनु कामश्च मे कामश्च मे सौमनचश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे जशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञात्रम् च मे सोऽश्च मे प्रसोश्च मे सेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नामयच्च मे धीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे शान्ति 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 ॐ अत्रिनात्वाक्रिमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः क्रिमेनागुम् राजा अप्येषागुस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिकाहता श्वेताभिः सह सर्वे हताः आरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य शम्भयोः आददामि तथा हि तत् खण्फण्मृषे ॐ शान्ति 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 ॐ भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्ये मार्षभिर्यजत्राः स्थिरैरङ्गैः सुष्ठुवागुंसस्तनोभिः व्यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ नमस्ते गणपतये त्वमेव प्रत्यक्षम् तत्त्वमसि त्वमेव केवलम् कर्तासि त्वमेव केवलम् धर्तासि त्वमेव केवलम् हर्तासि त्वमेव सर्वम् खल्विदम् ब्रह्मासि त्वम् साक्षादात्मासि नित्यम् ఋతం వచ్మి సత్యం వచ్మి అవత్వం మాం అవవక్తారం అవశ్రోతారం అవదాతారం అవధాతారం అవానోజానమవశిష్యం అవపశ్చాత్తాత్ అవపురస్తాత్ అవోత్తరాత్ అవదక్షిణాత్ అవచోడ్వాత్ అవాధరాత్ సర్వతో మాం పాహి పాహి సమంతాత్ త్వం వాంగ్మయస్త్వం చిన్మయః త్వమానందమయస్త్వం బ్రహ్మమయః త్వం సచ్చిదానందాద్వితీయోసి త్వం ప్రత్యక్షం బ్రహ్మాసి త్వం జ్ఞానమయో విజ్ఞానమయోసి సర్వం జగదిదం తత్తో జాయతే సర్వం జగదిదం తత్తస్తిష్ఠతే సర్వం జగదిదం త్వైలయమేష్యతే సర్వం జగదిదం త్వయి ప్రత్యేతే త్వం భూమిరాపో నలో నిలో నవః త్వం చత్వారి వాక్పదాని త్వం గుణత్రయాతీతః త్వం అవస్థాత్రయాతీతః త్వం దేహత్రయాతీతః త్వం కాలత్రయాతీతః త్వం మూలాధారస్థితోసి నిత్యం త్వం శక్తిత్రయాత్మకః త్వాం యోగినోద్యాయంతి నిత్యం త్వం బ్రహ్మా త్వం విష్ణుస్త్వం రుద్రస్త్వమింద్రస్త్వమగ్నిస్త్వం వాయుస్త్వం సూర్యస్త్వం చంద్రమాస్త్వం బ్రహ్మభూర్భువస్వరూం గగనాదిం పూర్వముచ్చార్య వర్ణాదీం తదనంతరం అనుస్వార పరతరః అర్ధేందులసితం తారేణ రుద్ధం ఏతత్తవమనుస్వరూపం గకారః పూర్వరూపం అకారో మధ్యమరూపం అనుస్వారశ్చాంత్యరూపం బిందురుత్తరరూపం నాదః సంధానం సగుంహితా సంధిః సైషా గణేశ విద్యా గణక ఋషిః నిచృగ్గాయత్రీ ఛందః గణపతిర్దేవతా ఓం గం గణపతయే నమః ఏకదంతాయ విద్మహే వక్రతుండాయ ధీమహి తన్నో దంతి ప్రచోదయాత్ ఏకదంతం చతుర్హస్తం పాశమంకుశధారిణం రథం చ వరదం హస్తైర్విభ్రాణం మూషకధ్వజం రక్తం లంబోదరం శూర్పకర్ణకం రక్తవాససం రక్తగంధానులిప్తాంగం రక్తపుష్పై సుపూజితం భక్తానుకంపినం దేవం జగత్కారణమచ్యుతం ఆవిర్భూతం చ సృష్ట్యాదౌ ప్రకృతే పురుషాత్ పరం ఏవం ధ్యాయతి యో నిత్యం స యోగీ యోగినాం వరః నమో వ్రాతపతయే నమో గణపతయే నమః ప్రమథపతయే నమస్తే అస్తు లంబోదరాయ ఏకదంతాయ విఘ్ననాశినే శివసుతాయ వరదమూర్తయే నమః एतदगर्भशीर्षम् द्योधीते स ब्रह्म भूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयते प्रातरधीयानो रात्रिकृतम् पापम् नाशयते सायम् प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दते इदमथर्वशीर्षमशिष्याय न देयम् यो यदि मोहाद्दास्यति स पापीयान्भवति सहस्रावर्तनाद्यम्यम् काममधीते तम् तमनेन साधयेत् अनेन गणपतिमभिषिञ्चति स वाग्ने भवति चतुर्थ्या मनश्यञ्जपति स विद्यावान्भवति इत्यथर्वणवाक्यम् ब्रह्माद्यावरणम् विद्यान् न विवेति कदाचनेति यो दूर्वाङ्कुरैर्यजति स वै श्रवणोपमो भवति यो राजैर्यजति स यशोवान्भवति स मेधावान्भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्य सहृद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टो ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वे भवते सूर्यग्रहे महारथ्याम् प्रतिमासन्निधो वा जप्त्वा सिद्धमन्त्रो भवते महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद इत्युपनिषत् भद्रम् कर्णे विश्रुणुयाम देवाः भद्रम् पश्येमाशभिर्यजत्राः स्थिरैरङ्गैः सुष्णुवागुंसस्तनोभिः व्यचेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्ताक्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्ददातु ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् सदाधार पृथिवीम् ध्यामुते माम् कस्मै देवाय हविषा विधेम यत्मदा बलदा यस्य विश्व उपासते प्रशिशम् यस्य देवाः यस्य छायामृतम् यस्य मृत्यु कस्मै देवाय हविषा विधेम यः प्राणतो निमिषतो महित्वैक इन्द्र जाजगतो बभूव यैषे अस्य द्विपदश्चतुष्पद कस्मै देवाय हविषा विधेम यस्येमे हिमवन्तो महित्वा यस्य समुद्रम् रसया सहाहुः यस्येवा प्रदिशो यस्य बाहु कस्मै देवाय हविषा विधेम ये नद्यो रुग्रा पृथिवी च दृढ़ा ये न स्वस्थभितं ये ननाकः यो अन्तरिक्षे रजसो विमान कस्मै देवाय हविषा विधेम यं क्रन्दसि अवसातस्तभानि अभ्येक्षे तां मनसा रेचमाने यत्राधिसूर उदितो विभाति कस्मै देवाय हविषा विधेम आपो हयद्बृहतिर्विश्वमायं गर्भं दधाना जनयन्ति रग्निम् ततो देवानां समावर्तता सुरेख कस्मै देवाय हविषा विधेम यश्चिरापो महिना पर्यपश्य दक्षं ददाना जनयन्ति यज्ञम् यो देवेष्वधिदेव एक आसीत् कस्मै देवाय हविषा विधेम मानो हिंसेज्जनिताय पृथिव्यायो वादिवम् सत्यधर्मा जजान यश्चापश्चन्द्रा बृहतेर्जजान कस्मै देवाय हविषा विधेम प्रजापतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहुमस्तन्नो अस्तु वयम् जामपतयोरयीणाम् ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद् ध्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोर्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरा ततम् तद्विप्रासो विपन्यवो जाग्रुवागुम् सस्समिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंसहंसाय विद्महे परमहंसाय धीमहि तन्नो हंसः प्रचोदयात् राजादिराजाय प्रसह्यसाहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो दधातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ गुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् अषट्कारस्त्वमिन्द्रस्त्वगुम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्मस्त्वम् प्रजापतिः त्वम् तदाप आपो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवः सुपरो न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः परेण नाकम् निहितम् गुहाया विभ्राजते दद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाध्यतयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतात् परिमुच्यन्ति सर्वे दारम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमद्य सद्गुस्तम् तत्रापि दारम् गगनम् विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादो स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परस्य महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।